सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. काव्यशास्त्रविनोदेन कालो गच्छति धीमतां, व्यसनेन च मूर्खाणां नित्रया कलहेन वा. इत्युक्ते बुद्धिमन्तः पुरुषाः काव्यशास्त्रपठनेन कालयापनं कुर्वन्ति, परन्तु मूर्खाः व्यसनेन अथवा कलहेन अथवा निद्रया कालयापनं कुर्वन्ति. परन्तु काव्यशास्त्रपठनार्थं भाषायाः अवगमनम् आवश्यकम्. अत्र अस्मिन् श्लोके धीमताम् इत्युक्ते धीमन्तः पुरुषाः इति पदमस्ति. धीमान् अथवा बुद्धिमान् इत्युक्ते कः? यस्य बुद्धिः अस्ति, यस्मिन् बुद्धिः अस्ति सः बुद्धिमान्. वयं सर्वे बुद्धिमन्तः पुरुषाः एव, वयं तु मूर्खाः न. तदर्थं वयं सर्वे अत्र मिलित्वा संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः. अद्य अद्यतनविषयः अस्ति तृतीयाविभक्तिः. तदर्थम् अहं तं श्लोकं पठितवती. तस्मिन् श्लोके बहूनि पदानि तृतीयाविभक्त्यन्तानि पदानि सन्ति, तदर्थं पठितवती. अनन्तरं गते सप्ताहे वयं अत्र किं पठितवन्तः इत्युक्ते, अत्र इदानीं पर्यन्तं वयं 50तमपुटपर्यन्तं वयम् आगतवन्तः. अपि च पदानि संस्कृतभाषायां सुबन्तपदानि त्रिषु लिङ्गेषु भवन्ति, अपि च सप्तसु विभक्तिषु भवन्ति पदानि इति वयं ज्ञातवन्तः. अपि च पूर्वमेव वयं 100 पर्यन्तं सङ्ख्याः पठितवन्तः, सङ्ख्यानां विषये पठितवन्तः. परन्तु गते सप्ताहे वयं 1 आरभ्य 4 पर्यन्तं लिङ्गभेदः अस्ति इति वयम् अवगतवन्तः. 5 आरभ्य लिङ्गभेदः न दृश्यते, परन्तु 4 पर्यन्तं लिङ्गभेदः अस्ति. इत्युक्ते अत्र लिङ्गम् अनुसृत्य सङ्ख्याः वदामः, यथा 1, 1, 1, 1 बालकः, 1 फलं, 1 बालिका, तथा 4 पर्यन्तं लिङ्गम् अनुसृत्य सङ्ख्याः भिद्यन्ते इति वयं ज्ञातवन्तः. अपि च तत्र यदा तदा उपयुज्य कथं वाक्यरचना करणीया इति अपि वयं ज्ञातवन्तः. यदा तदा, यदा अहं कक्ष्याम् आगतवती तदा छात्राः तूष्णीं स्थितवन्तः, तथा यदा तदा युजेत वाक्यानि कथं रचनीयानि इति वयं अवगतवन्तः. किञ्चित् अधुना किञ्चित् कालं यदा तदा इत्यस्मिन् विषये किञ्चित् चिन्तनं कृत्वा अनन्तरम् अभ्यासपुस्तके इतोपि किमस्ति इति वयं ज्ञास्यामः. अहम् अन्यम् एकं वक्तुमिच्छामि, अन्यः विषयः अस्ति. ईमेल् माध्यमेन अहं प्रारम्भिकस्तरीयसुबन्तपदानि इति एकं करपत्रं प्रेषितवती. सर्वे तत् करपत्रं पठन्तु, सर्वे प्रतिदिनं तानि रूपाणि पठन्तु, रूपाणि कण्ठस्थीकुर्वन्तु, नो चेत् रूपाणि मनसि न तिष्ठन्ति. इत्युक्ते अत्र यस्टर्डे वैल् सेण्डिङ्ग् द ईमेल् ऐ हव् सेण्ट् करपत्रं सुबन्त प्रारम्भिकस्तरीयपदानि, सुबन्तपदानि, प्रारम्भिकस्तरीयसुबन्तपदानि इति करपत्रं प्रेषितवती. किं कर्तव्यम् इत्युक्ते, सर्वे प्रतिदिनं न्यूनातिन्यूनं 30 निमेषपर्यन्तं 30 मिनिट्स् पठन्तु, नो चेत् सर्वदा भ्रमः भवति. यदि वयम् एकवारं कण्ठस्थीकरणं कुर्मः चेत् तानि रूपाणि सर्वदा मनसि स्थायिरूपेण तिष्ठन्ति, नो चेत् सर्वदा भ्रमः भवति एव. तदर्थं सर्वे एकवारं पठन्तु तत्करपत्रम्. अपि च अधुना अत्र कादम्बरी भगिनी भवती श्रावयतु वाक्यानि.
अस्तु भगिनि. यदा सूर्योदयः भवति तदा अहम् उत्तिष्ठामि. यदा अमृता पाठशालां गच्छति तदा सा पाठं करोति. यदा शूलिनी श्रान्ता भवति तदा सा निद्रां करोति. यदा बुभुक्षा अस्ति तदा अहं खादामि.
उत्तमम्.
यदा दशाधिकसप्तवादनः भवति तदा याजप्रिया भागवतपारायणं करोति. यदा मारञ्जनी खादति तदा सा हस्तं प्रक्षालयति. यदा सूर्यस्तमं भवति तदा अन्धकारः भवति.
सूर्यास्तमयः. अस्तमयः. अनन्तरं
यदा अहं क्रीडाङ्गणं गच्छामि तदा अहं क्रीडामि. यदा अहं मन्दिरं गच्छामि तदा अहं देवदर्शनं करोमि. यदा अहं विद्यालयं गच्छामि तदा अहं भोजनपेटिकाम् आनयामि. तावदेव.
उत्तमम् उत्तमं. दशवाक्यानि लिखितवती वा?
आम्.
अस्तु, उत्तमम्, उत्तमानि वाक्यानि. अनन्तरम् अत्र लक्ष्मी भगिनी भवती श्रावयतु.
यदा समयः भवति तदा आगच्छामि. यदा अहं रमेशस्य गृहं गतवती तदा रमेशः तत्र न आसीत्. यदा वयं बेङ्गलूरुनगरं गच्छामः तदा सर्वे बान्धवाः मिलिष्यामः.
बान्धवाः मिलिष्यामः.
तावदेव.
अस्तु, उत्तमम्. अत्र भगिनी अत्र मिल् धातुः अकर्मकधातुः, भवती यदि लिखितवती तत् सम्यक् एव. बान्धवाः मेलिष्यामः. उत्तमम्. अनन्तरं राजीव् सिङ्ग् महोदय भवान् वदतु.
आं भगिनि. यदा मम आरोग्यम् असम्यक् अस्ति तदा अहम् औषधं खादामि. यदा
किं खादति भवान्?
औषधम्.
औषधम्.
औषधम्. यदा अहं भारतदेशं गमिष्यामि तदा अहं मातापित्रेण मेलिष्यामि. यदा शिशुः बुभुक्षुम् अस्ति तदा शिशुः रोदनं करोति.
यदा शिशोः बुभुक्षा अस्ति, शिशोः बुभुक्षा अस्ति शिशोः, अत्र शिशुः उकारान्तपदं, शिशोः षष्टिविभक्त्यन्तरूपं, शिशोः बुभुक्षा अस्ति तदा रोदनं करोति. उत्तमं महोदय. अनन्तरम् अत्र सुचित्रा भगिनी भवती श्रावयतु.
यदा लोकयानम् आगच्छति तदा यात्रिकाः यात्रा गच्छामः. यदा विद्यालयं गच्छामः तदा पाठं जानीमः। यदा वर्षा भवति तदा जीवन सुखी।
भगिनी प्रथमं वाक्यम् एकवारं वदतु।
यदा लोकयानम् आगच्छति तदा यात्रिकाः यात्रा गच्छामः।
अत्र पश्यतु यात्रिकाः, यात्रिकाः इति पदमस्ति चेत् तत्र उत्तमपुरुषक्रियापदं किमर्थम्? अत्र यात्रिकाः यात्रां गच्छन्ति, गच्छन्ति, वयं वयं गच्छामः परन्तु यात्रिकाः गच्छन्ति। अत्र अत्र यात्रिकाः, यात्रिकाः इति पदम् अत्र प्रथमपुरुषकर्तृपदं, यात्रिकाः गच्छन्ति, कुत्र गच्छन्ति? यात्रां गच्छन्ति। गच्छामः, गच्छामः इति वदामश्चेत् किं वदामः? वयं गच्छामः।
अहं यात्रिकः, यात्रिकौ, यात्रिकाः। ऐ थाट् लैक्
आं भगिनि, यात्रिकः यद्भवती उक्तवती तत् सत्यमेव। अत्र एकवचनं द्विवचनं बहुवचनरूपं भवती उक्तवती, तत् सम्यक् एव, परन्तु अत्र यात्रिकः इति पदं प्रथमपुरुषकर्तृपदं, यात्रिकः गच्छति, यात्रिकाः गच्छन्ति, तत्र गच्छामः इति न वदामः। अनन्तरं द्वितीयं वाक्यं वदतु।
यदा विद्यालयं गच्छामः तदा पाठं
पठामः,
पठामः, जानीमः, पठामः,
जानीमः अथवा अवगच्छामः। उत्तमं, तृतीयं वाक्यं।
यदा वर्षा भवति तदा जीवन सुखिन्।
यदा वर्षा भवति तदा
जीवन सुखिन्।
इत्युक्ते अत्र भवती किं वक्तुमिच्छति?
इफ् वेन् रेन् कम्स् जीवन लैफ् इस् हेपी।
इत्युक्ते यदा वर्षा भवति तदा अहं सन्तुष्टा अस्मि, अहं सन्तुष्टा अस्मि। उत्तमम्। अनन्तरम् अत्र उमाशङ्कर महोदय भवान् श्रावयतु।
यदा मित्रं मम गृहम् आगच्छति तदा चित्रं पश्यामि। यदा अहं पाकं करोति तदा मम पत्नी भोजनं करोति।
अत्र पश्यतु महोदय, यदा अहम् अहम् उक्तवान् वा अत्र?
यदा मम
वदतु, द्वितीयं वाक्यं वदतु।
यदा यदा अहं पाकं करोति,
करोति इति वदामः वा अत्र? किं वक्तव्यं?
करोति न, अहं पाकं करिष्यामि,
करोमि, करिष्यामि,
करोमि, करोमि, तदा मम पत्नी भोजनं करोति।
उत्तमम्, मम पत्नी भोजनं करोति। उत्तमं, तृतीयं वाक्यं। तावदेव वा? अस्तु, अत्र कस्याः दूरवाणीसङ्ख्या 8897415241? कस्य दूरवाणी?
लक्ष्मी भगिनी, मम नाम सुब्बारावः, अहं भारतदेशम् आगतवान्।
ओ, भारतात् कक्षाम् आगतवान् वा महोदय? स्वागतम्। अत्र 8897415241 भवतः दूरवाणीसङ्ख्या वा?
आम् 8897415241 मम दूरवाणीसङ्ख्या।
अस्तु, स्वागतं महोदय। भवान् भागं वोढुमिच्छति वा? भवान् अपि वाक्यानि लिखितवान् वा?
गतसप्ताहे अहं कक्षायां न
आगतवान्
तदर्थम् अहं गृहपाठं न करो न
उत्तमं न कृतवान्। अस्तु, इत्युक्ते अत्र भवान् भागं वोढुमिच्छति परन्तु नो चेत् केवलं शृणोति वा महोदय?
न, न गतसप्ताहे अहं कक्षा न
श्रुतवान् न श्रुतवान् ध्वनिमुद्रणं न श्रुतवान् वा? अस्तु, श्रूयते महोदय। अनन्तरम् इदानीं पर्यन्तं वयं यदा तदा योजयित्वा वाक्यानि कथं रचनीयानि इति वयं ज्ञातवन्तः। अपि च गते सप्ताहे अभ्यासपुस्तके अत्र ध्वनिः अस्ति, किञ्चित् म्यूट् करोमि। अत्र अभ्यासपुस्तके सङ्ख्यानां विषये किञ्चित् अधीतवन्तः। अहं चिन्तयामि भवन्तः सर्वे अपि अत्र सङ्ख्यानां विषये लिङ्गभेदम् अनुसृत्य अत्र सङ्ख्याः कथं भवन्ति इति भवन्तः कृतवन्तः, अभ्यासं कृतवन्तः इति अहं चिन्तयामि। अत्र अर्धोरुकम् अपि च माला, ऊरुकं, गृहगोधिका एतानि पदानि सन्ति, परन्तु तत्र लिङ्गभेदम् अनुसृत्य कथं भवति इति गृहपाठरूपेण भवन्तः कृतवन्तः इति अहं चिन्तयामि। अधुना अभ्यासपुस्तके इतोपि किमस्ति इति एकवारं पश्येम। अत्र प्रथमतया अहं किञ्चित् वदामि। अत्र भवन्तः सर्वे जानन्ति एव, यः कार्यं करोति सः कर्ता। अपि च क्रियायाः फलम् अस्ति, क्रियायाः फलम् एव कर्म इति वदामः। साधारणतया कर्तृपदं प्रथमाविभक्तौ भवति। संस्कृतभाषायां सप्तविभक्तयः सन्ति, कर्तृपदं साधारणतया प्रथमाविभक्तौ भवति। कर्ता इत्युक्ते कः? यः कार्यं करोति सः कर्ता। अपि च क्रियायाः फलं कर्म भवति। कर्मपदं द्वितीयाविभक्तौ भवति। परन्तु यदि वयं किमपि कार्यं कर्तुमिच्छामः तदर्थम् उपकरणम् आवश्यकम्। यदि अहं चित्रं लेखितुमिच्छामि तदा उपकरणम् आवश्यकं। किम् आवश्यकम् उपकरणमित्युक्ते? लेखनी वा अङ्कनी वा किमपि आवश्यकम्। उपकरणं नास्ति चेत् अहं कार्यं कर्तुं न शक्नोमि। तदर्थमेव अहं लेखनीम् उपयुज्य चित्रं लिखामि अथवा अङ्कनीम् उपयुज्य चित्रं लिखामि। तदर्थम् अत्र किं वदामि? अहं लेखन्या लिखामि, अहम् अङ्कन्या लिखामि, तथा एव अहम् अन्यत्र गन्तुमिच्छामि। कथं गन्तुं शक्नोमि? तत्र उपकरणं किं? लोकयानं वा, नो चेत् कारयानं वा, अथवा द्विचक्रिका वा, किमपि उपकरणम् आवश्यकम्। इत्युक्ते अत्र उपकरणम् एव उपकरणस्य साहाय्येन एव अहम् अन्यत्र गन्तुं शक्नोमि। तदर्थं तत्र किं वदामः? अहं कारयानेन गच्छामि, अहं द्विचक्रिकया गच्छामि इति वदामः. इत्युक्ते अत्र क्रियायां यत् साधनमस्ति तस्य तृतीया विभक्तिः भवति. साधन यत् साधनं भवति साधनस्य तृतीया विभक्तिः भवति. अत्र अधुना अस्माकं विषयः अस्ति तृतीया विभक्तिः उपकरणम्. उपकरणस्य साहाय्येन वयं साधारणतया कार्याणि कर्तुं शक्नुमः. अधुना अभ्यासपुस्तके किञ्चित् अभ्यासं कुर्मः. तृतीया विभक्तिः इत्युक्ते किं, तस्य उपयोगः कथं भवति, कुत्र भवति, तृतीया विभक्तेः उपयोगं कृत्वा वाक्यानि कथं रचनीयानि इति एकवारं पश्येम. अधुना सर्वे एकवारम् अभ्यासपुस्तकं पश्यन्तु. तत्र एकपञ्चाशत्तमे पुटे पेज् 51 19.1 अभ्यासं कुर्मः अधुना. कादम्बरी भगिनी भवती पठतु, अत्र किं दत्तमस्ति 19.1?
अस्तु. चित्राणां साहाय्येन रिक्तस्थानानि पूरयन्तु.
एकवारं वदतु भगिनी, अन्येषां कृते वदतु, भवती जानाति चेत्. अत्र चित्राणां विभक्तिः का, वचनं किम्?
षष्टि.
सुन्दरं. वचनं किम्?
बहुवचनं.
सुन्दरं. प्रथमाविभक्तिरूपं किम्? चित्रम्. चित्रम् चित्रम् इति प्रथमाविभक्ति एकवचनरूपं. बहुवचनं किं भवति? लक्ष्मीभगिनी वदतु, बहुवचनरूपं किं चित्रम् इति पदस्य?
चित्रे.
द्विवचनं चित्रे. बहुवचनं कोऽपि वदति वा?
चित्रस्य.
प्रथमाविभक्ति बहुवचनं, चित्रस्य षष्टी एकवचनं. राजीवसिंह महोदय भवान् वदतु.
चित्राणि.
बहुचित्राणि.
सुन्दरं. चित्राणि. तत्र चित्रम् एकवचनं, बहुवचनं चित्राणि. भगिनी तत्र णत्वम् अस्ति वा, मूर्धन्यणकारः अस्ति वा नास्ति वा? चित्राणि
अस्ति.
अस्ति. भवती जानाति वा किमर्थमस्ति तत्र मूर्धन्यणकारः? तत्र नियमः कः जानाति वा?
अहं न जानामि.
अत्र राजसिंह महोदय भवान् वदति वा, जानाति चेत्?
न भगिनि.
अत्र कोऽपि जानाति चेत् वदन्तु, नो चेत् अहं वदामि. अत्र चित्रं प्रथमाविभक्ति एकवचनरूपं, परन्तु चित्राणि तत्र मूर्धन्यणकारः अस्ति. किमर्थमस्ति इत्युक्ते अत्र कारणमस्ति. कारणं किम् इत्युक्ते, यदि एकस्मिन् पदे रेफः अस्ति चेत्, रेफः वा कृष्णरुकारः वा, नो चेत् अत्र षकारः, मूर्धन्यषकारः वा एकस्मिन् पदे अस्ति चेत्, तस्मिन्नेव पदे दन्त्यनकारः अपि अस्ति चेत्, तदा दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आगच्छति. अत्र चित्रं बहुवचनं, चित्राणि तत्र मूर्धन्यणकारः आगच्छति एव. तदर्थम् अत्र यथा अत्र कादम्बरी भगिनी उक्तवती, चित्राणां षष्ठी बहुवचनम्, अपि च अत्र साहाय्येन, वदतु भगिनि रूपं किम्? कादम्बरी भगिनी साहाय्येन वक्तुं शक्नोति वा? स एव अस्माकं विषयः, अद्यतनविषयः, साहाय्यं प्रथमाविभक्त्यन्तरूपम्. साहाय्येन. लक्ष्मी भगिनी वदतु
तृतीया
विभक्ति. वदतु
तृतीया विभक्ति.
सुन्दरं. प्रथमाविभक्ति अन्तरूपं
सहायं.
साहाय्यं प्रथमाविभक्ति अन्तरूपम्. उत्तमं. चित्राणां साहाय्येन रिक्तस्थलानि पूरयन्तु. करोतु भगिनी, कादम्बरी भगिनी करोतु. उदाहरणत्वेन प्रथमं वाक्यम् अत्र दत्तमस्ति, करोतु, पठतु भगिनी, कादम्बरी भगिनी करोति वा?
अस्तु भगिनी. सः हस्तेन कार्यं करोति.
अत्र अहम् एकं प्रश्नं पृच्छामि, कः कार्यं करोति?
सः
केन कार्यं करोति?
हस्तेन.
हस्तेन. अत्र केवलम् एकः एव हस्तः अस्ति चित्रे, केवलम् एकः एव हस्तः अस्ति, परन्तु हस्तद्वयम् अस्ति चेत् तदा किं वदामः? कथं वक्तव्यं, किञ्चित् चिन्तयन्तु सर्वे. वदतु. सुन्दरं, वदतु वदतु. उत्तमं. वाक्यं पूरयतु.
सः हस्ताभ्यां कार्यं करोति.
सुन्दरम्. अपि च बहुवचने वदतु वाक्यम्. अत्र सः अस्ति, सः अत्र हस्तद्वयं चित्रे हस्तद्वयमस्ति चेत् यथा भवती उक्तवती सः हस्ताभ्यां कार्यं करोति, परन्तु बहुवचने वक्तुं शक्नोति वा वाक्यम्?
हस्ताभ्यां कार्यं करोति.
अत्र पश्यतु, तौ तौ इति
कुर्वन्ति.
तौ वदति चेत्, तौ वदति चेत् द्विवचने वदति, वक्तुमिच्छति भवती. तौ हस्ताभ्यां कार्यं कुरुतः इति भवति. परन्तु बहुवचने वदामश्चेत् किं वदामः? ते हस्ताभ्यां कार्यं. क्रियापदं किम्?
कुर्वन्ति.
सुन्दरं, तावदेव. तथा परिवर्तनं कृत्वा अभ्यासं कुर्मः चेत् सम्यक् रीत्या वयं अवगन्तुं शक्नुमः भाषां. द्वितीयं करोतु.
सीवनयन्त्रेण वस्त्रं सीव्यति.
अत्र सीव्यति इति पदमस्ति. सीव्यति इत्युक्ते किं? नूतनं पदं. उत्तमम्. अत्र सा सीवनयन्त्रेण वस्त्रं सीव्यति इति दत्तमस्ति. अत्र सीवनयन्त्रेण, अत्र मूर्धन्यणकारः अस्ति वा नास्ति वा वदतु. यन्त्रे
अस्ति.
अस्ति अस्ति किमर्थमस्ति इत्युक्ते अत्र पदमस्ति यन्त्रं, सीवनयन्त्रं, परन्तु अस्माकं विषयः अस्ति तृतीया विभक्तिः, यन्त्रेण यन्त्रेण इति भवति. इत्युक्ते अत्र मूर्धन्यणकारः आगच्छति एव. किमर्थं चेत् तत्र निमित्तमस्ति, तस्मिन् पदे निमित्तमस्ति. निमित्तं किं? रकारः अस्ति. यदि एकस्मिन्नेव पदे रकारः अस्ति अपि च दन्त्यनकारः अपि अस्ति चेत् तदा रकारस्य प्रभावेन मूर्धन्यणकारः आगच्छति. इत्युक्ते सम्यक् उच्चारणं करणीयम्. सीवनयन्त्रेण वस्त्रं सीव्यति. भगिनी वदतु, वस्त्रम् इति पदस्य बहुवचनरूपं किम्?
भगिनी निमित्तम् इत्युक्ते किम्?
पुनः वदतु मा.
निमित्तम् इत्युक्ते किम्?
निमित्तम्, निमित्तम् इत्युक्ते अत्र कारणमस्ति किमर्थं मूर्धन्यणकारः भवेत्, तत्र कारणं किम्? कारणं किमपि अस्ति चेदेव कार्यं भवति, नो चेत् कार्यं न भवति. तत्र कारणं किम् इत्युक्ते निमित्तमित्युक्ते कारणं, रीज़न्. सीवनयन्त्रं, तत्र भवती सम्यक् रीत्या उक्तवती, सा सीवनयन्त्रेण वस्त्रं सीव्यति, तत्र मूर्धन्यणकारः भवेत्. उत्तमं भगिनी, उत्तमरीत्या कृतवती. अनन्तरं लक्ष्मी भगिनी भवती करोतु.
जनाः लोकयानेन प्रयाणं कुर्वन्ति.
एकवचने वदतु भगिनी, एकवचने वदतु एतत् वाक्यं.
जनः लोकयानेन प्रयाणं कुर्मः.
जनः एकवचने. जनः अस्ति चेत् क्रियापदं कथं भवति?
करोति.
सुन्दरं, सुन्दरं. जनः किं कुर्वन्ति?
प्रयाणं कुर्वन्ति.
केन साहाय्येन कुर्वन्ति?
लोकयानेन साहाय्य कुर्वन्ति.
लोकयानस्य साहाय्येन कुर्वन्ति. उत्तमम्. अपि चतुर्थं करोतु.
एषः स्यूतेन वस्तूनि आनयति.
आनयति, उत्तमम्. अत्र किम् आनयति?
वस्तूनि आनयति.
कः आनयति?
स्यूतेन
कः आनयति? एषः आनयति. सर्वे शृण्वन्तु एकवारम्. अत्र वस्तूनि इति पदमस्ति. भवती जानाति वा अत्र लिङ्गं किं, वचनं किं, विभक्तिः का?
वस्तूनि बहुवचन प्रथमविभक्ति.
अत्र पश्यतु भगिनि, आनयति इति पदं सकर्मकक्रियापदम्, अतः अत्र द्वितीया विभक्तौ अस्ति. यथा फलं फले फलानि तथा. परन्तु अत्र पदमस्ति उकारान्तपदम्, उकारान्त नपुंसकलिङ्गपदं. प्रथमाविभक्त्यन्तरूपं किं भवति? वस्तु, एकवचनं वस्तु, वस्तूनि, वस्तूनि तथा भवति. परन्तु वयं जानीमः नपुंसकलिङ्गपदमस्ति चेत् प्रथमाविभक्त्यन्तरूपाणि द्वितीयाविभक्त्यन्तरूपाणि समानानि. अत्र वस्तूनि आनयति. किम् आनयति? वस्तूनि आनयति. केन आनयति?
स्यूतेन.
उत्तमम्. अत्र सर्वे पश्यन्तु, अत्र करोति इति क्रियापदं, सीव्यति अपि च कुर्वन्ति, आनयति, एतानि क्रियापदानि सकर्मकक्रियापदानि. इत्युक्ते एतेषु वाक्येषु कर्मपदम् अस्ति एव, सकर्मकधातवः. एते सर्वे सकर्मकधातवः. अत्र अस्मिन् वाक्ये कर्मपदं किं भगिनि?
वस्तूनि.
वस्तूनि. यदि कर्मपदमस्ति चेत् कर्मपदं वाक्ये अस्ति चेत् तस्य विभक्तिः का भगिनि?
द्वितीयविभक्ति.
सुन्दरं, सुन्दरं. अग्रिमं करोतु.
भारती द्विचक्रिकया विद्यालयं गच्छति.
भवती किमर्थम् अत्र द्विचक्रिकया इति उक्तवती? किमर्थं
स्त्रीलिङ्ग
स्त्रीलिङ्गरूपम् इत्युक्ते अत्र द्विचक्रिका इति पदम् आकारान्तस्त्रीलिङ्गपदं तदर्थं द्विचक्रिका इति पदस्य तृतीयान्तरूपं किम्?
द्विचक्रिकया.
सुन्दरं सुन्दरम्. अग्रिमं करोतु.
एषा कुञ्चिकया तालम् उद्घाटयति.
अत्र कुञ्चिका इत्युक्ते अत्र चित्रमस्ति, चित्रं दृष्ट्वा वक्तुं शक्नुमः. कुञ्चिका इत्युक्ते कि कुञ्चिकया तालम् उद्घाटयति. उद्घाटयति इत्युक्ते किम्? किं कुर्मः कुञ्चिकया?
सौण्ड् नेक्स्ट् सौण्ड्
भगिनि अत्र भवती जानाति एव तालम् इत्युक्ते लाक्. अत्र ओपन् सुन्दरं सुन्दरं ओपेन् भवती जानाति एव. उद्घाटयति इत्युक्ते ओपेन्, परन्तु क्लोस् इति वदामश्चेत् किं वदामः संस्कृतभाषायां? कः जानाति, कः वदति? कादम्बरी भगिनी जानाति वा? कादम्बरी अत्र अत्र उद्घाटयति उद्घाटयति इत्युक्ते ओपेन्. वयं जानीमः कुञ्चिकया तालम् उद्घाटयति. कादम्बरी अद्य कुञ्चिकया तालम् उद्घाटयति. उद्घाट्य गृहस्य अन्ते आगच्छति. यदि माता तत्र नास्ति चेत् कादम्बरी एव कुञ्चिकया तालम् उद्घाट्य गृहस्य अन्ते आगच्छति. वयं जानीमः गृहस्य अन्तः आगमनात् अनन्तरं किं करोति कादम्बरी? द्वारं किं वदामः भगिनी, वदतु? क्लोस् करोति. क्लोस् इत्युक्ते किं वदामः? पिदधाति. द्वारं पिदधाति. पिदधाति इत्युक्ते क्लोस्. नूतनं पदम् अस्माकं कृते. धन्यवादः लक्ष्मी भगिनी. अनन्तरं राजीवसिंह महोदय भवान् करोतु.
सौचिकः कर्तरेण वस्त्रं कर्तयति.
अत्र पश्यतु महोदय, अत्र अत्र सौचिकः इति पदमस्ति. इत्युक्ते कः
सौचिकः? टेलर्.
टेलर् अपि च सः किं करोति?
वस्त्रं कर्तयति.
वस्त्रं कर्तयति. केन सहायेन करोति?
कर्तरेण.
अत्र पश्यतु, अत्र रूपं समीचीनं नास्ति. अत्र पश्यतु रूपम्, अत्र पदमस्ति कर्तरी, ईकारान्त स्त्रीलिङ्गपदम्.
आं भगिनि.
इत्युक्ते वयं जानीमः संस्कृतभाषायां पदानि त्रिषु लिङ्गेषु भवन्ति, परन्तु अत्र स्यूतः इति पदं पुंलिङ्गपदं, तदर्थं स्यूतेन इति वदामः. परन्तु अत्र पदमस्ति कर्तरी, ईकारान्तस्त्रीलिङ्गपदं, तदा कर्तरी इति पदस्य तृतीयान्तरूपं किं भवति? इतोपि किञ्चित् समीकरोतु.
कर्तराय सौचिकः कर्तराय वस्त्रं कर्तयति.
अत्र समीचीनं रूपं किम् अस्ति इत्युक्ते कर्तर्या, कर्तर्या. यथा नदी शब्दवत्, यदि वयं नदीशब्दं जानीमश्चेत् तदा कर्तरीशब्दम् अपि तादृशरूपेण, तादृश कर्तर्या तृतीयान्तं रूपम्. अधुना एकवारं वाक्यं पूरयतु समीकृत्य.
सौचिकः कर्त्र्या वस्त्रं कर्तयति.
कर्तर्या कर्तयति. अत्र अस्मिन् वाक्ये कर्मपदं किम्?
वस्त्रम्.
वस्त्रम्. परन्तु वस्त्रम् इति पदं नपुंसकलिङ्गपदं. परन्तु अत्र अस्मिन् वाक्ये नपुंसकलिङ्गपदमिति कृत्वा द्वितीया विभक्तौ अस्ति. वस्त्रं वस्त्रे वस्त्राणि, वस्त्रं वस्त्रे वस्त्राणि, द्वितीया विभक्ति रूपम् अपि वस्त्रमेव. अग्रिमं करोतु.
आपणिकः दूरवाण्याः सम्भाषणं करोति.
आपणिकः इत्युक्ते कः?
आपणिकः क्लर्क्.
अत्र आपणः इत्युक्ते किं महोदय? आपणः इत्युक्ते शाप्. यः आपणे यः आपणे कार्यं करोति सः आपणिकः. अधुना वदतु. स्टोर् कीपर्. आपणिकः सम्भाषणं करोति. केन सम्भाषणं करोति?
आपणिकः सम्भाषणं करोति.
केन साहाय्येन करोति सम्भाषणं?
दूरवाण्याः.
पश्यतु महोदय, अत्र दूरवाणी यथा कर्तरी तथा एव दूरवाणी इति ईकारान्तपदं. परन्तु अत्र तृतीयान्तं रूपम् अस्ति दूरवाण्या. तत्र विसर्गः नास्ति. दूरवाण्याः इति वदामश्चेत् षष्ठीविभक्तिरूपं भवति. परन्तु अद्यतन अस्माकं विषयः अस्ति तृतीयाविभक्तिरूपं. किमर्थं चेत् अत्र उपकरणमस्ति, दूरवाण्या सम्भाषणं करोति. यदि दूरवाणी नास्ति चेत् सम्भाषणं कर्तुं न शक्नोति. अत्र उपकरणमस्ति, दूरवाण्याः साहाय्येन कार्यं करोति. तदर्थम् अत्र आपणिकः दूरवाण्या सम्भाषणं करोति. अत्र विसर्गः नास्ति.
विसर्गे नास्ति.
नास्ति. उत्तमम्. अग्रिमं करोतु.
बालिका अङ्कनीया चित्रं लिखति.
अत्र का चित्रं लिखति?
अङ्कनीया चित्रं लिखति.
का लिखति?
बालिका.
बालिका लिखति. केन लिखति?
चित्रं लिखति.
केन?
अङ्कनीया चित्रं लिखति.
उत्तमम्. अङ्कन्या लिखति. महोदय, भवान् एकवारं वदतु, अत्र अस्मिन् पुटे पुंलिङ्गपदानि कानि? अत्र वामभागे चित्राणि सन्ति. भवान् एव वदतु, अत्र पुंलिङ्गपदानि कानि, नपुंसकलिङ्गपदानि कानि, स्त्रीलिङ्गपदानि कानि? वदतु.
हस्तः पुल्लिङ्ग. पुल्लिङ्ग पदानि.
तृतीयरूपं किं भवति?
हस्तेन.
सीवनयन्त्रं लिङ्गं किं?
नपुंसकलिङ्गं.
तस्य तृतीयरूपं किं?
यन्त्राणि. सीवनयन्त्राणि.
अत्र तृतीयान्तं रूपं.
सीवनयन्त्रेण.
उत्तमम्. लोकयानं लिङ्गं किम्?
लोकयानं नपुंसकलिङ्गं.
तृतीयान्तं रूपं?
लोकयानेन.
स्यूतः लिङ्गं किम्?
स्यूतः पुल्लिङ्ग.
रूपं, तृतीयान्तं रूपं किं भवति?
स्यूतेन.
अपि च द्विचक्रिका
स्त्रीलिङ्गम्
आकारान्त स्त्रीलिङ्गम् इति वदामः अत्र तृतीयान्तं रूपं किं भवति
द्विचक्रिया द्विचक्रिया
अत्र अत्र पश्यतु द्विचक्रिकया
द्विचक्रिकया
द्विचक्रिकया इति भवति अनन्तरं कुञ्चिका किं भवति
कुञ्चिकाया कुञ्चिकया
कुञ्चिकया अपि च कर्तरी
कर्त्रया कर्तरया
अपि च कर्तरी इति पदं लिङ्गं किं
स्त्रीलिङ्गम्
अपि च ईकारान्त स्त्रीलिङ्गम् इति वदामः
ईकारान्त स्त्रीलिङ्गम्
यदि एकं पदं पृच्छामि चेत् ईकारान्तपदमस्ति स्त्रीलिङ्गपदमस्ति प्रथमाविभक्तौ अस्ति एकवचने अस्ति तथा वक्तव्यं वी नीड् टु टेल् फोर् थिङ्ग्स् अबौट् ईच् वर्ड् ईकारान्तपदं प्रथमाविभक्त्यन्तरूपम् एकवचनम् अपि च स्त्रीलिङ्गम् इति वदामः अपि च दूरवाणी वदतु
दूरवाणी इकारान्तस्त्रीलिङ्गपदं प्रथमाविभक्ति एकवचनं
सुन्दरं तृतीयान्तं रूपं किं भवति
दूरवाण्या
अङ्कनी
अङ्कनी इकारान्त स्त्रीलिङ्गपदं प्रथमाविभक्ति एकवचनं
सुन्दरं सुन्दरं महोदय तावदेव अङ्कन्या तृतीयान्तं रूपं तथा वक्तव्यम् अधुना सर्वे अहम् एकं करपत्रं प्रेषितवती सर्वे एकवारं करपत्रं पश्यन्तु तत्रापि किञ्चित् इतोपि अभ्यासं कुर्मः अत्र सुचित्रा भगिनी भवत्याः पार्श्वे करपत्रमस्ति वा अत्र तृतीया विभक्तिः अभ्यासः
आं भगिनि इति किं तृतीया विभक्ति करपत्रम्
करपत्रं प्रथमं करपत्रं पश्यतु तत्र तृतीया इति लिखितमस्ति
तृतीया क्रियाणां यथ साधनं भवति तस्य तृतीया विभक्तिः भवति
अत्र एकवारं पश्यतु भगिनी क्रियायाम् इति पदमस्ति जानाति वा तस्य विभक्तिः का वचनं किम्
क्रियायां बहुवचनं क्रियायां षष्टिविभक्ति क्रियायां यथ सम्बन्ध क्रियायां
अत्र अहं वदामि अत्र ऐ एम् रिक्वेस्टिङ्ग् यु आल् टु लिकिङ्ग् टु द करपत्रं in which you can come across all the shabdas I request all of you to read those words karapatram subanta prarambhika stariya subanta padani iti karapatram pratidinam pathantu eka masa paryantam just for 1 month read every day for 30 minutes then you are able to do all these exercises perfectly without any problem otherwise there will be lot of confusion From now onwards, I am going to send that karapatram along with every email. Prarambhika stariya subanta kriya subanta padani iti karapatram prashayami. Bhagini shrunatu atra kriya iti padam asti. Kriya iti padam adhuna vadatu kriya iti padasya lingam kim?
Kriya strilingam एकवचनम्
उत्तमम् उत्तमम् अत्र क्रियायाम् अस्ति इत्युक्ते सप्तमी एकवचनम् अत्र किं दत्तमस्ति क्रिया यदि वयं क्रियां कुर्मः तदा यत् साधनं भवति तस्य तृतीया विभक्तिः भवति क्रिया यदि किमपि कार्यं कुर्मः तत्र कार्यं कथं कुर्मः उपकरणस्य साहाय्येन कार्यं कुर्मः क्रियायां यत् साधनं भवति साधनम् इत्युक्ते इन्स्ट्रुमेण्ट् आङ्ग्लभाषायाम् इन्स्ट्रुमेण्टल् केस् इति वदामः तृतीया विभक्तिः इत्युक्ते इन्स्ट्रुमेण्टल् केस् अत्र क्रियायां यत् साधनं भवति तस्य तृतीया विभक्तिः भवति अत्र साधनम् इति पदं नपुंसकलिङ्गपदं तदर्थम् अत्र यत् इति दत्तमस्ति यदि पदं पुंलिङ्गपदमस्ति चेत् यः तथा एव स्त्रीलिङ्गपदमस्ति चेत् या बालिका यः पुरुषः इति लेखनीयं परन्तु अत्र यत् इति दत्तमस्ति किमर्थं साधनमिति पदं नपुंसकलिङ्गपदमिति कृत्वा अत्र यत् क्रियायां यत् साधनं भवति तस्य तृतीया विभक्तिः भवति उदाहरणं पठतु
उदाहरणं सः दण्डेन शुनकं ताडयति
दण्डः इत्युक्ते किं
स्टिक्
सः दण्डेन किं करोति
शुनकं ताडयति
अस्मिन् वाक्ये कर्मपदं किं
शुनकं शुनकं
शुनकं प्रथमाविभक्त्यन्तरूपं किं
शुनकः
सुन्दरं तावदेव अत्र सः केन साहाय्येन शुनकं ताडयति
दण्डेन
दण्डेन उत्तमम् अभ्यासः अग्रिमं वाक्यं पठतु
अभ्यासः एतैः साधनैः भवन्तः किं कृतुं शक्नुवन्ति लिखन्तु
अत्र पश्यतु एतैः साधनैः इति दत्तमस्ति एतैः साधनैः कोऽपि वदति वा अत्र वचनं किं लिङ्गं किं विभक्तिः का एतयोः द्वयोः पदयोः विभक्तिः कादम्बरी भगिनी भवती प्रयत्नं करोतु अत्र
कुत्र भगिनि
अत्र अहम् एकं करपत्रं प्रेषितवती तृतीया इति लिखितमस्ति प्रथमे पुटे
अस्तु
एतैः साधनैः
तृतीया विभक्ति
सुन्दरं वचनं
बहुवचनम्
उत्तमम् अपि च लिङ्गं किं
पुल्लिङ्गम्
चिन्तयतु अत्र पश्यतु उपरि किं दत्तमस्ति साधनम् इति दत्तमस्ति इत्युक्ते नपुंसकलिङ्गम् किमर्थं तथा अत्र यद्भवती उक्तवती तृतीया विभक्ति बहुवचनं सम्यक् एव परन्तु अत्र केवलं तत्र भेदः कदा आरभ्य भेदः अस्ति इत्युक्ते तृतीया विभक्ति आरभ्य सप्तमीविभक्तिपर्यन्तं पुंलिङ्गरूपाणि अपि च नपुंसकलिङ्गरूपाणि समानानि अत्र पदमस्ति साधनं साधनम् इति पदस्य तृतीया बहुवचनरूपं साधनैः भगिनी एकवारं वदतु एतदेव वाक्यम् एकवचने वदतु एतैः साधनैः भवन्तः किं कर्तुं शक्नुवन्ति सर्वाणि पदानि एकवचने वदतु वाक्ये सर्वाणि पदानि बहुवचने सन्ति प्रथमतः आरम्भं करोतु अत्र एतैः वदतु एषः प्रथमाविभक्त्यन्तरूपम् एकवचने तृतीया एकवचने एतेन सर्वनामपदं भवती जानाति एव एषः सर्वनामपदम् एषः इति पदस्य तृतीयान्तरूपम् एतेन साधनैः वदतु एकवचने
साधने
भवती कृतवती एव अत्र सुन्दरं सुन्दरम् एतेन साधनेन भवन्तः इति पदमस्ति. एकवचने किं वदामः?
भवतः.
अत्र किञ्चित् क्लिष्टकरं पदं भवान्. भवान् शब्दस्य बहुवचनरूपं भवन्तः. भवान् भवन्तौ भवन्तः अत्र बहुवचनरूपं दत्तमस्ति. एतेन साधनेन भवान् किं कर्तुं? क्रियापदं वदतु.
शक्नोति.
सुन्दरं. पूर्णतया वाक्यं वदतु एकवचने.
एतेन साधनेन
भवान् अथवा स्त्रीलिङ्गे वक्तुमिच्छति चेत् भवती, परन्तु अत्र भवन्तः अस्ति, भवान् इति वक्तव्यम् एकवचने.
भवान् किं कर्तुं शक्नोति.
सुन्दरं. तावदेव. अपि च लिखन्तु इति पदं लोट् लकारः वयं जानीमः. एकवचने वदतु.
लिखतु.
तावदेव. सुन्दररीत्या उक्तवती भगिनी. अधुना सुचित्रा भगिनी भवती करोतु.
उदाहरणं करवस्त्रम्. अहं करवस्त्रेण मुखं मार्जयामि.
अत्र वस्त्रेण इति दत्तमस्ति, इत्युक्ते मूर्धन्यणकारः अस्ति. अत्र निमित्तं किम्? अहं पूर्वम् उक्तवती. कारणं किम्?
वस्त्रेण.
अत्र वस्त्रेण मूर्धन्यणकारः अस्ति. अत्र कारणं किम्? लक्ष्मी भगिनी भवती वदतु. अत्र वस्त्रेण इति दत्तमस्ति, किमर्थमित्युक्ते अत्र अस्मिन् पदे रेफः रकारः अस्ति, तदर्थं वस्त्रेण इति वदामः. सम्यक् उच्चारणं भवतु. वि नीड् टु प्रनौन्स् दीस् वर्ड्स् पर्फेक्ट्लि. उत्तमं भगिनी, प्रथमं करोतु.
कर्तरी. अहं कर्तर्या कागदं कर्तयामि.
कर्तयामि इत्युक्ते किं कर्तयति भवती?
कागदं, पेपर्.
कागदम् इत्युक्ते पेपर्. अस्तु. कर्तर्या कर्तयामि. कर्तरी इति पदं वदतु. कर्तरी इति पदस्य रूपं किम्?
कर्तरी एकवचनं स्त्रीलिङ्गम्.
ईकारान्त
स्त्रीलिङ्गम्.
प्रथमविभक्ति ईकारान्तम्. द्वितीयं करोतु.
कुञ्चिका. अहं कुञ्चिकयाः तालम् उद्घाटयामि.
उत्तमं. वयं पूर्वमेव कृतवन्तः एतद् वाक्यं. तृतीयं करोतु.
उद्घाटनयन्त्रम्. अहम् उद्घाटनयन्त्रेण उद्घाटनं करोमि.
भगिनी, अत्र पदमस्ति उट्टङ्कनयन्त्रम्. उट्टङ्कनयन्त्रम्. अत्र उट्टङ्कनयन्त्रम् इत्युक्ते जानाति वा?
उट्टङ्कनयन्त्रम् ओपनर्.
उट्टङ्कनयन्त्रम् इत्युक्ते टैप्रैटर्. उट्टङ्कनं करोमि. परन्तु केन साहाय्येन भवती उट्टङ्कनं करोति?
उत्कण्ठनयन्त्रेण सह.
सः न योजयामः, परन्तु उट्टङ्कनयन्त्रेण अत्र यन्त्रेण तत्रापि मूर्धन्यणकारः अस्ति, वयं जानीमः केवलं यन्त्रेण इति भवति, तत्र उच्चारणं सम्यक् भवेत्। अनन्तरं सीवनयन्त्रं करोतु चतुर्थम्।
अहं सीवनयन्त्रेण सीवनं करोमि।
अत्र सीवनयन्त्रम् इत्युक्ते किं?
सूयिङ्ग् मिशिन्।
सीवनम् इत्युक्ते
सूयिङ्ग्।
उत्तमम्। अनन्तरम् अग्रिमं करोतु।
विमानम्, अहं विमानेन सञ्चारं करोमि।
अत्र पश्यतु, विमानेन इति उक्तवती, तत्र मूर्धन्यणकारः अस्ति वा नास्ति वा? अत्र अत्र पदं किम् उक्तवती पुनः एकवारम्?
अहं विमानेन सञ्चारं करोमि।
अत्र मूर्धन्यणकारः अस्ति वा नास्ति वा?
विमानेन मूर्धन्य
लक्ष्मी भगिनी वदतु, अत्र मूर्धन्यणकारः अस्ति वा न वा?
न, नास्ति।
किमर्थं नास्ति? तत्र रेपः नास्ति, कृष्णरुकारः नास्ति, अथवा षकारः, षकारः तथा एकस्मिन्नेव पदे, इन् वन् वर्ड्, इफ् यु केन् हाव् वन् आफ़् दीस् त्री लेटर्स् देन् दट् दन्त्यनकारः विल् बिकम् मूर्धन्यणकारः। परन्तु तत्र केचन नियमाः सन्ति, देर् आर् सट् रूल्स् असोसियेटेड् वित् दट्, देर् आर् सम् सूत्रास् असोसियेटेड् वित् दट्, सूत्राणि सन्ति। अग्रिमं करोतु, अत्र सुचित्रा भगिनी भवती एव करोतु।
सूक्ष्मदर्शकम्, अहं सूक्ष्मदर्शकेन सूक्ष्मवस्तूनि पश्यामि।
अत्र पश्यतु, अत्र तृतीयान्तं रूपं किं भगिनि?
सूक्ष्मदर्शकेन।
अत्र अत्र णत्वम् अस्ति वा, मूर्धन्यणकारः अस्ति वा?
न भगिनि,
किमर्थं नास्ति?
रकार नास्ति, सकार अस्ति।
अत्र दर्शकं तत्र रकारः अस्ति,
दर्शकेन।
पश्यतु, अत्र दर्शकम् इति पदमस्ति, तत्र रकारः अस्ति एव, परन्तु अत्र निमित्तं कारणमस्ति, परन्तु अत्र बाधकवर्णाः सन्ति, तदर्थम् अत्र णत्वं न भवति। ईवन् दो देर् इस् अ रीज़न् फर् ण, बट् देर् आर् सर्टन् वर्ड्स् दट् प्रोहिबिट् फ्रम् गेटिङ्ग् अण्णकारः, मूर्धन्यणकारः। अत्र षकारः अस्ति, षकारः बाधकवर्णः, अतः अत्र केवलं सूक्ष्म वदतु भगिनि।
रकार केन् बि बिफोर् आर् आफ्टर्, कुड् यू जस्ट् एक्स्प्लेन् दट्, वेर् शुड् द रकार बि लैक्?
अत्र पश्यतु, दर्शकम् इति पदमस्ति, दर्शकम् इत्यस्मिन् पदे रेफः अस्ति, रेफः इत्युक्ते रकारः अस्ति, परन्तु अत्र कारणमस्ति अथवा निमित्तमस्ति, परन्तु अत्र बाधकवर्णाः सन्ति। बाधकवर्णः कः? षकारः। वयं जानीमः षकाराः त्रिप्रकारकाः, तालव्यषकारः, दन्त्यसकारः, मूर्धन्यषकारः। कृष्ण इति वदामश्चेत् तत्र मूर्धन्यषकारः अस्ति, अपि च सूक्ष्म अथवा सम्भाषणम् इत्यस्मिन् पदे दन्त्यसकारः अस्ति, अपि च तालव्यषकारः कुत्र अस्ति? अत्र दर्शकम् इत्यस्मिन् तत्र तालव्य शकारः अस्ति. देर् आर् त्री डिफ़रेण्ट् वेरैटीस् आफ् सा स ष अस्ति. अत्र तालव्यशकारः अस्ति. तालव्यशकारः बाधकवर्णः, तदर्थम् अत्र णकारः न आगच्छति. तदर्थम् अत्र रूपं किं भवति, अन्तिमं रूपं वदतु.
रूपं नपुंसक सकलिङ्गं सूक्ष्मदर्शकम्.
रूपं तृतीयान्तं रूपं किं भवति,
सूक्ष्मदर्शकेन.
केन सूक्ष्मदर्शकेन न भवति, तथा भवति. अत्र वस्तूनि इति पदमस्ति भगिनि. अत्र वस्तूनि, तस्य विभक्तिः का?
वस्तु, वस्तूनि, बहुवचनं.
विभक्तिः
द्वितीयाविभक्ति.
द्वितीयाविभक्ति किमर्थमित्युक्ते अत्र पश्यामि इति क्रियापदमस्ति. पश्यामि इत्युक्ते किम्?
सीन्.
अत्र पश्यामि इति पदं दृश् धातुतः आगच्छति. दृश् धातुः सकर्मकधातुः. सर्वे पश्यन्तु अत्र वाक्यानि का. प्रथमे वाक्ये कर्मपदं किं भगिनि वदतु.
सूक्ष्मवस्तु.
अत्र प्रथमं वाक्यं पश्यतु. प्रथमं वाक्यं पश्यतु. प्रथमे वाक्ये कर्मपदं किम्?
प्रथमे अहं कारेण मुखं मार्जयामि.
कर्तरि. तस्मिन् वाक्ये
अहं कागदं कर्तर्या. अहं कर्तर्या कागदं कर्तयामि. कर्मपदं कागदं.
सुन्दरं. द्वितीये वाक्ये कर्मपदं किम्?
तालम्.
अपि च अनन्तरम् अत्र सूक्ष्मवस्तूनि अस्मिन् वाक्ये सूक्ष्मवस्तूनि इति कर्मपदम्. परन्तु अत्र सर्वे पश्यन्तु, अत्र उट्टङ्कनं सीवनं तत्र उट्टङ्कनं सीवनम् इति पदम् अत्र कर्मपदम् इव कार्यं करोति. परन्तु ल्युडन्तपदम् इति वदामः. अत्र पञ्चमं वाक्यं पश्यतु. अहं सञ्चारं करोमि. अत्र सञ्चारः इति पदमस्ति, परन्तु सञ्चारं द्वितीयाविभक्त्यन्तरूपम्. अत्र कर्मपदं सञ्चारम्. अग्रिमं करोतु.
कङ्क्तिका. अहं कङ्क्तिकया. अहं कङ्क्तिकया केशप्रसाधनं करोमि.
अत्र पश्यतु, पदमस्ति कङ्कतिका. कङ्कतिका इति पदं. कङ्कतिका इत्युक्ते वदतु भगिनि, आङ्ग्लभाषायां किं वद कोम्. कङ्कतिका. कङ्कतिका इति पदं लता स्त्रीलिङ्गं, यथा कुञ्चिका इव. तत्र तृतीयान्तं रूपं किं भवति?
कङ्कतिकया. कङ्कतिकया.
कङ्कतिकया. कङ्कतिकया भवती किं करोति?
केशप्रसादनम्.
उत्तमम्. उत्तमं भगिनि, धन्यवादः. अधुना उमाशङ्करमहोदय भवान् करोतु अग्रिमानि. महोदय करोति वा?
लोकयानं. अहं लोकयानेन प्रयाणं करोमि.
अत्र लोकयानेन अत्र ऋणत्वम् अस्ति वा नास्ति वा?
लोकयानेन नास्ति.
किमर्थं नास्ति?
राकारान्तः नास्ति.
इत्युक्ते अत्र णकारः नास्ति, लोकयानेन इति अस्ति, तत्र णकारः नास्ति. किमर्थम्? किमर्थमित्युक्ते अत्र रेप अत्र णत्वस्य कृते कारणं नास्ति, अत्र निमित्तं नास्ति, अत्र रेपः नास्ति, नो चेत् मूर्धन्यषकारः नास्ति अथवा कृष्णरुकारः अपि नास्ति. तदर्थं केवलं लोकयानेन इति भवति. अग्रिमं करोतु.
दूरवाणी. अहं दूरवाण्या सम्भाषणं करोमि.
अनन्तरं
द्विचक्रिका. अहं द्विचक्रिक्या विद्यालयं गच्छामि.
अत्र पदं किं महोदय? अत्र पदस्य रूपं वदतु.
आकारान्त श्रीलिङ्गपदम्.
श्रीलिङ्गपदं. तृतीयान्तं रूपं किं भवति?
द्विचक्रिक्या.
पश्यतु अत्र द्विचक्रिकया. पश्यतु अत्र कुञ्चिका अस्ति. कुञ्चिका इति पदस्य रूपं किं भवति? कुञ्चिकया. तथा एव कङ्कतिका अस्ति. कङ्कतिका तस्य रूपं किं भवति?
कङ्कटिकया.
कङ्कटिकया. आकारान्तपदं. तथा एव अत्र द्विचक्रिका रूपं किं भवति?
द्विचक्रिकया.
सुन्दरं. द्विचक्रिकया अहं विद्यालयं गच्छामि. भवान् कुत्र गच्छति द्विचक्रिकया?
विद्यालयं गच्छति.
विद्यालयं.
अहं विद्यालयं गच्छामि.
अस्मिन् वाक्ये कर्मपदं किम्?
विद्यालयम्.
अत्र प्रथमाविभक्त्यन्तरूपं किम्? अत्र कर्मपदम् इति वदामश्चेत् कर्मपदम् इति वदामश्चेत् द्वितीयाविभक्त्यन्तरूपम् इति अवगन्तव्यं. परन्तु प्रथमाविभक्तिरूपं किम् अत्र विद्यालयम् इति पदस्य?
विद्यालयः.
विद्यालयः तथा वदामः. उत्तमं, भवान् अवगतवान्. अग्रिमं करोतु.
लेखनी. लेखन्या. अहं लेखन्या अक्षराणि लिखामि.
लेखनी इति पदस्य रूपं वदतु महोदय. लेखनी इति पदस्य रूपं किं?
लेखन्या. लेखनी ईकारान्त स्त्रीलिङ्गम्.
स्त्रीलिङ्गम्. अत्र अक्षराणि इति पदमस्ति. अत्र एकवचनरूपं वदतु.
अक्षरम्.
अक्षरम्. अत्र अस्मिन् वाक्ये अक्षराणि इति पदं कर्मपदम्, अपि च अक्षराणि प्रथमाविभक्ति बहुवचनरूपम्. अत्र पश्यतु, अत्र अक्षराणि अन्तिमवर्णः, अन्तिमम् अक्षरं किम्?
कृष्णनकारः.
नकारः. मूर्धन्य किं वदामः संस्कृतभाषया वदामः इति? मूर्धन्यणकारः. मूर्धन्यणकारः किमर्थम् अत्र अक्षरम्? अक्षराणि. अत्र मूर्धन्यणकारः किमर्थम्? रकारः अस्मिन् अस्मिन् पदे रकारः निमित्तमस्ति. रकारः निमित्तम्, अपि च अत्र बाधकवर्णाः न सन्ति, अतः अक्षराणि यथा चित्राणि तथा भवति. अग्रिमं करोतु.
कूर्चद. अगम कूर्चेन वित्राणि लिखामि
चित्राणि लिखामि
चित्राणि ओके चित्राणि
अत्र कूर्चः इति दत्तमस्ति कूर्चः इत्युक्ते किम्
अकारान्त
पुंलिङ्गं परन्तु अत्र तस्य अर्थः कः
कूर्चक कूर्चक मीन्स् द ओल्डन् डेस् रैट् नो कूर्चक
अत्र लक्ष्मी भगिनी वदतु कूर्चः इत्युक्ते किम्
न जानामि
राजीव्सिङ्ग् महोदय
ब्रश्
ब्रश् उत्तमम् उत्तमं कूर्चः इत्युक्ते ब्रश् महोदय अहं चित्राणि लिखामि केन लिखामि
कूर्चेन लिखामि
कूर्चेन लिखामि अत्र पश्यतु अत्र कूर्चेन इति पदमस्ति अत्र कूर्चेन इति कूर्चः इति पदस्य तृतीयान्तं रूपं कूर्चेन तत्र णत्वम् अस्ति वा न वा
मूर्धन्यनकारः अस्ति
अत्र पश्यतु अत्र मूर्धन्यणकारः नास्ति किमर्थं चेत् अत्र पदमस्ति कूर्चः तत्र रेपः अस्ति एव रकारः अस्ति पदं पदे रकारः अस्ति परन्तु अत्र बाधकवर्णः अस्ति चकारः बाधकवर्णः अत्र निमित्तमस्ति परन्तु बाधकवर्णः अस्ति तदर्थम् अत्र णत्वं न भवति अतः अन्तिमं रूपं किं भवति कूर्चेन ऐ जस्ट् वाण्ट् टु टेल् यू वन् थिङ्ग् I request all of you to listen to the Dhvani Mudranam once again because this Natvam is an important concept in Sanskritam. There are so many sutras associated with this Natvam. If you don't know this perfectly, then you are going to create wrong words. And you will pronounce it wrong. You will create the words in a wrong way. तदर्थं सर्वे एकवारं ध्वनिमुद्रणं शृण्वन्तु अत्र कुत्र णत्वं भवति कुत्र णत्वं न भवति तस्य कृते बहूनि सूत्राणि सन्ति अग्रिमं करोतु महोदय
स्यूतः अगं स्यूतेन वस्तूनि आनयति आनयामि
आनयामि अत्र वस्तूनि इति पदस्य रूपं किम्
वस्त्रं वस्त्रं वस्त्रं
वस्तूनि वस्तूनि इति पदमस्ति पूर्वम् अत्र लक्ष्मीभगिनी उक्तवती अपि च सुचित्रा भगिनी अपि उक्तवती अत्र वस्तूनि इति पदस्य रूपं किम्
वस्त्रम्
अत्र पदमस्ति वस्तूनि तस्य लिङ्गं किं वचनं किं विभक्तिः का
इट्स् लिङ्गं नगुंसलिङ्गं नगुंसलिङ्गं बहुवचनं
सुन्दरं विभक्तिः का
विभक्ति
अहं किम् आनयामि
अहं वस्तूनि वस्त्रम् आनयामि
किम् आनयामि वस्तूनि आनयामि इत्युक्ते अत्र यदि अहं प्रश्नं पृच्छामि किम् आनयामि किं लिखामि अथवा कुत्र गच्छामि अत्र किम् इत्यस्य उत्तरमस्ति चेत् तत्र कर्मपदं सम्भवति अत्र अस्मिन् वाक्ये वस्तूनि इति पदं कर्मपदम् अतः विभक्तिः का
प्रथमाविभक्ति
अत्र कर्मपदमस्ति चेत् विभक्तिः का महोदय
कर्मपदमस्ति चेत् विभक्तिः द्वितीया
द्वितीयाविभक्तिः द्वितीयाविभक्तिः भवति. अग्रिमं करोतु.
तुला अगं तुल्या वस्तूनि तोलयामि.
तुला तुला इति अस्ति. तुला इत्युक्ते किम्? वेयिङ्ग् मेशिन्. वेयिङ्ग् मेशिन् तुला इत्युक्ते वेयिङ्ग् मेशिन्. तुलया किं करोति भवान्?
तुलया वस्तूनि तोलयति.
अहं तोलयामि.
तोलयामि
अहमस्ति. अहम् इति कर्तृपदमस्ति चेत् तोलयामि. सः सः वस्तूनि तोलयति. उत्तमम्. अन्तिमं करोतु.
दन्तकूर्चक अहं दन्तकूर्चेन दन्तधावनं करोमि.
अत्र अत्र दन्तकूर्चेन अत्रापि निमित् कूर्चः कूर्चः अत्र निमित्तमस्ति. निमित्तं किं? रेपः निमित्तं. रकारः अस्ति परन्तु बाधकवर्णः अस्ति अतः केवलं दन्तकूर्चेन इति भवति. तत्र णत्वं न भवति. उत्तमं महोदय, धन्यवादः. अनन्तरम् अधुना पुनः एकवारं वयम् अभ्यासपुस्तकं प्रति गच्छेम. सर्वे एकवारम् अभ्यासपुस्तकं पश्यन्तु. अत्र अभ्यासपुस्तके अत्र किमस्ति? अत्र सः इति पदं योजयित्वा अत्रापि तृतीयाविभक्तेः उपयोगं कृत्वा वदामः. अत्र सुब्बारमहोदय, भवान् करोति वा? अधुना कर्तुं शक्नोति वा?
लक्ष्मी भगिनी, मम पार्श्वे अभ्यासपुस्तकं नास्ति.
अस्तु, नो चेत् अधुना अत्र 205 कस्याः दूरवाणीसङ्ख्या? 205-470 अत्र. नो चेत् अधुना कादम्बरी भगिनी भवती करोतु. अत्र किम् अस्ति?
अस्तु भगिनि. सः पुत्रेण सह आपणं गच्छति.
केन सह गच्छति?
पुत्रेण सह गच्छति.
कः गच्छति?
सः गच्छति.
अत्र अत्र पश्यतु, चित्रं पश्यतु. चित्रे पिता अस्ति, अपि च तस्य पुत्रः अस्ति. पुत्रः पिता पुत्रेण सह आपणं गच्छति. चित्रं पश्यति वा?
आं भगिनि.
सः पिता पुत्रेण सह आपणं गच्छति. कुत्र गच्छति?
आपणं गच्छति.
आपणम् इति पदस्य प्रथमान्तं रूपं किम्?
आपणः.
आपणः साधारणतया यत्र कुत्रापि गन्तव्यस्थानमस्ति चेत् तदा कर्मपदं सम्भवति. गच्छति गम् धातुः, सकर्मकधातुः. अतः अत्र आपणम् इति पदं कर्मपदमस्ति. द्वितीयं करोतु.
सा सख्या सह विद्यालयं गच्छति.
अत्र चित्रं पश्यतु. अत्र चित्रे बालिकाद्वयमस्ति. एका बालिका तस्याः सख्या सह विद्यालयं गच्छति. द्वे बालिके विद्यालयं गच्छतः. अत्र सर्वे चित्रं पश्यन्तु. चित्रे किं दत्तमस्ति? बालिकाद्वयमस्ति. सा बालिका सख्या सह विद्यालयं गच्छति. अत्र भगिनी किञ्चित् चिन्तनं करोतु. अत्र सख्या इति पदमस्ति, तस्य रूपं किम्?
द्वितीया विभक्ति.
सुन्दरं. प्रथमाविभक्तिरूपं किम्?
सखी.
सुन्दरं. पूर्वस्मिन् पूर्वस्मिन् वाक्ये पुत्रेण इति दत्तमस्ति, प्रथमान्तं रूपं किम्?
पुत्रः.
उत्तमं. पुत्रः प्रथमान्तं रूपं, परन्तु अत्र पुत्रेण, सः पुत्रेण सह आपणं गच्छति, सा बालिका सख्या सह विद्यालयं गच्छति. अग्रिमं करोतु, उदाहरणं दृष्ट्वा तादृशवाक्यानि लिखतु.
रामः रावणेन सह युद्धं कृतवान्.
कः युद्धं कृतवान्?
रामः.
केन सह कृतवान्?
रावणेन.
सुन्दरं सुन्दरम्. अत्र इदानीं पर्यन्तं वयं तृतीयाविभक्तेः विषयं पठितवन्तः. कुत्र तृतीयाविभक्तेः उपयोगं कुर्मः इति वयं ज्ञातवन्तः, परन्तु अत्र किम् अस्ति इत्युक्ते उपपदतृतीया इति वदामः. अत्र सः इति पदम् अस्ति चेत् तत्र साधारणतया तृतीयाविभक्तिः भवति. पूर्वं वयं पूर्वस्मिन् पुटे तृतीयाविभक्तेः विषयं पठितवन्तः, परन्तु अत्र किम् अस्ति? अत्रापि तृतीयाविभक्तिरूपमेव दत्तमस्ति, परन्तु अत्र कारणं किं? तृतीयाविभक्तेः अवसरः किमर्थमस्ति इत्युक्ते अत्र सः इति उपपदम् इति वदामः. यदि सः अथवा साकं, सार्धं तथा कानिचन पदानि सन्ति संस्कृतभाषायां, तानि पदानि योजयित्वा वाक्यरचनां कुर्मः चेत् तदा तृतीयाविभक्तेः उपयोगं कुर्मः. अत्र रामः रावणेन सह युद्धं कृतवान्, सः इति उपपदम्, अतः उपपदतृतीया विभक्ति इति वदामः. प्रथमं द्वितीयं करोतु.
अस्तु. लक्ष्मणः रामेण वनं रामेण सह वनं गतवान्.
सुन्दरं. रामेण सह वनं गतवान्. अत्र रामेण अत्र णत्वम् अस्ति वा?
अस्ति.
अस्ति. कारणं किम्?
रा अस्ति.
रा अस्ति. पूर्वस्मिन् पूर्वस्मिन् वाक्ये रावणेन अस्ति, तत्र णत्वम् अस्ति वा?
आम्.
चिन्तयतु, किं वदामः? पूर्व प्रथमं वाक्यं पुनः एकवारं पठतु.
रामः रावणेन सह युद्धं कृतवान्.
अस्मिन् वाक्ये रावणेन इति भवति, किमर्थं चेत् अत्र निमित्तमस्ति इत्युक्ते कारणमस्ति, कारणं प्रकारः, परन्तु अत्र बाधकवर्णः अस्ति, अणकारः बाधकवर्णः इति कृत्वा तत्र अणत्वं न भवति. इत्युक्ते अन्तिमं रूपं किं वक्तव्यं वदतु? तत्र रूपं किं कथं वक्तव्यं? हौ शुड् वि से दट् वर्ड्? वदतु तृतीयान्तं रूपम्. अत्र भवती उक्तवती एव, वदतु तत्र रामः केन सह युद्धं कृतवान्?
रावणेन सह.
रावणेन सह इत्युक्ते तत्र रावणेन तत्र अणत्वं न भवति. उत्तमं, तावदेव. अनन्तरं गोपालः करोतु.
भगिनि एकं प्रश्नमस्ति. यु सेड् द न कृष्ण न इफ् इट् इस् रकारन्त कृष्ण न कम्स् बट् एक्सेप्शन्स् आर् दन्तसकारः एण्ड् चकारः. इफ् इट् इस् देर् देन् कृष्ण न does not come. So here Ravanena,
इत्युक्ते अत्र पश्यन्तु वयं जानीमहेव संस्कृतभाषायां कवर्गः चवर्गः टवर्गः तवर्गः पवर्गः पञ्चवर्गीयव्यञ्जनानि सन्ति. कवर्गे अक्षराणि कानि? क ख ग घ ञ. चवर्गे अक्षराणि कानि? च छ ज झ ञ. तवर्गे त ठ ड ढ ण. तवर्गे त थ द ध न. पवर्गे प फ ब भ म. परन्तु अत्र नियमः कः इत्युक्ते तत्र कवर्गीयव्यञ्जनानि सन्ति चेत् णत्वं भवति, पवर्गीयव्यञ्जनानि सन्ति चेत् णत्वं भवति. परन्तु चवर्गीयव्यञ्जनं तवर्गीयव्यञ्जनं तवर्गीयव्यञ्जनम् अस्ति चेत् तत्र णत्वं न भवति इति एकं सूत्रमस्ति. तस्य सूत्रं किम्? अष्टाध्याय्यां सूत्रमस्ति, अट् कुप् वाङ् नुं व्यवायेपि इति एकं सूत्रं, रषाभ्यां नोणः एकं सूत्रं. बिकास् आफ् दीस् टु रूल्स् कुत्र णत्वं भवति, कुत्र णत्वं न भवति इति सूत्रं वदति. कवर्गीयव्यञ्जनम् अथवा पवर्गीयव्यञ्जनम् अस्ति चेत् तत्र णत्वं भवति. परन्तु चवर्गीय तवर्गीय तवर्गीयव्यञ्जनमस्ति चेत् तत्र णत्वं न भवति इति एकः नियमः. अत्र अस्मिन् पदे रावणेन तत्र णकारः अस्ति, णकारः तठ डढण, तवर्गीयव्यञ्जनम् अतः बाधकवर्णः, अतः णत्वं न भवति. तृतीयान्तं रूपं वदामश्चेत् रावणेन भवति, न तु राव तत्र णत्वं न भवति. अवगतं वा भगिनि?
आं भगिनि.
पुनः एकवारं ध्वनिमुद्रणं शृणोतु, तदा अवगन्तुं शक्नोति भवती. अत्र लक्ष्मी भगिनी भवती करोतु अधुना.
गोपालः माधवेन अभ्यासं करोति. अहं मित्रेण नाटकं पश्यामि.
भगिनी अत्र पश्यतु, माधवेन सह.
ओके,
किमर्थमित्युक्ते अत्र उपकरणं नास्ति. रावणः रावणेन इति वदामः, रामः रामेण, माधवः माधवेन इति वदामः. परन्तु अत्र माधवः उपकरणं नास्ति, केवलं सः इति पदम् अस्ति. तदर्थम् एव अत्र तृतीयाविभक्तिरूपम् आगच्छति.
गोपालः माधवेन अभ्यासं करोति.
माधवेन सह अभ्यासं करोति. अत्र माधवेन इति पदं किमर्थम् इत्युक्ते अत्र सः इति उपपदम् अस्ति इति कृत्वा अत्र तृतीयाविभक्त्यन्तरूपम् आवश्यकम्. केन सह अभ्यासं करोति?
माधवेन सह.
कः करोति
अभ्यासं? करोति
कः? करोति
गोपालः. करोति
किं? करोति
अभ्यासं. करोति
उत्तमं, तावदेव. चतुर्थं करोतु, शीघ्रं समापयामः.
अहं मित्रेण सह नाटकं पश्यामि.
अत्र नाटकं, नाटकं तस्य लिङ्गं किं भगिनि?
नाटकं नपुं
उत्तमं, नपुंसकलिङ्गं. बहुवचनरूपं किं?
नाटकानि.
सुन्दरम्. अत्र अत्र कर्मपदं नाटकम् इति पदं यथा भवती उक्तवती नपुंसकलिङ्गपदं, परन्तु कर्मपदं. पश्यामि, पश्यामि इत्युक्ते अत्र दृष् धातुः सकर्मकधातुः, अतः नाटकम् इति कर्मपदम्. पञ्चमं करोतु.
एषा सीतया तिष्ठति. सीतया सह तिष्ठति.
अत्र एषा सीतया सह तिष्ठति अस्मिन् वाक्ये कर्मपदं नास्ति. किमर्थम्? सुन्दरम्. अकर्मकक्रियापदं तिष्ठति इति पदम् अकर्मकक्रियापदं. स्था इति धातुः अस्ति संस्कृतभाषायाम्. अप्राक्सिमेट्लि 2000 मोर् देन् 2000 धातवः, उपद्विसहस्रं धातवः सन्ति. अत्र स्थाधातुः अकर्मकधातुः. स्थाधातुतः तिष्ठति इति रूपम् आगच्छति. अस्मिन् वाक्ये कर्मपदं नास्ति. सा तिष्ठति. के कया सह तिष्ठति?
सीतया सह तिष्ठति.
सीतया सह तिष्ठति. अनन्तरं षष्ठं करोतु.
सुरेशः भगिन्या सह सम्भाषणं करोति.
प्रथमाविभक्त्यन्तरूपं किम्? सम्भाषणं. सम्भाषणं नपुंसकलिङ्गपदम्. अपि च भगिनी इति प्रथमान्तं रूपं. तृतीयान्तं रूपं किम्?
भगिन्या.
भगिन्या, उत्तमम्. अग्रिमम्.
माता पुत्रया सह कार्यं करोति.
पुत्री इति पदम् ईकारान्तपदं. तस्य तृतीयान्तं रूपं पुत्र्या. अत्र सर्वे पश्यन्तु, मित्रं, सीता, भगिनी एतानि पदानि अत्र उपकरणानि न सन्ति. पूर्वस्मिन् पुटे यदा उपकरणमस्ति, इन्स्ट्रुमेण्ट् अस्ति चेत् तत्र तृतीयाविभक्तिः भवति. परन्तु अत्र इन्स्ट्रुमेण्ट् नास्ति, उपकरणं नास्ति, केवलम् अत्र उपपदं. सः इति उपपदमस्ति. तस्मात् कारणात् अत्र तृतीयाविभक्तिरूप अन्तरूपम् आगच्छति. अग्रिमं करोतु.
अध्यापकः छात्रैः सह प्रवासार्थ गतवान्.
अत्र रूपं किं भगिनि?
आकारान्तस्त्रीलिङ्ग.
अत्र आकारान्तम्. अत्र एकः विषयः अस्ति भगिनि. अत्र पश्यतु, छात्राः इति पदमस्ति. छात्राः इति पदं दृष्ट्वा लिङ्गं किं भवति, कथं वक्तुं शक्नोति लिङ्गं किं?
बहुवचनं.
बहुवचनं, परन्तु लिङ्गं किम्? स्त्रीलिङ्गमपि भवितुमर्हति, पुंलिङ्गमपि भवितुमर्हति. यदि स्त्रीलिङ्गमस्ति चेत् वदतु, रूपाणि वदतु. उत्तमं. छात्रा, छात्रे, छात्राः. तत्रापि स्त्रीलिङ्गमस्ति चेदपि बहुवचनरूपं छात्राः एव. पुंलिङ्गं वदतु. पुनः एकवारं.
न जानामि.
अत्र छात्रः, छात्रौ, छात्राः. इत्युक्ते अत्र किमस्ति इत्युक्ते, अत्र छात्राः इति पदं स्त्रीलिङ्गबहुवचनमपि छात्राः, पुंलिङ्गबहुवचनमपि छात्राः. अत्र किञ्चित् भ्रमः भवितुम् अर्हति. देर् केन् बि ए कन्फ्यूजन् हियर्. परन्तु पुंलिङ्गरूपम् अस्ति चेत् एकवचनरूपं छात्रः. यदि स्त्रीलिङ्गपदम् इति चिन्तयामश्चेत् तत्र स्त्रीलिङ्गरूपं प्रथमाविभक्त्यन्तरूपं छात्रा. भवती किम् उक्तवती अत्र उत्तरम्?
छात्रै.
किमर्थम्? किमर्थमित्युक्ते अत्र छात्राः इति पदं बहुवचने अस्ति. तस्य परिवर्तनं परिवर्तनं कृत्वा वदामश्चेत् तृतीया विभक्ति बहुवचनरूपम् आवश्यकम्. छात्राः इति पदस्य तृतीया बहुवचनं किं भवति? छात्रैः. अत्र मित्रम् अस्ति चेत् मित्रेण इति पदस्य अत्र पश्यतु भगिनी, तस्मिन् एव पुटे अन्ततो गत्वा अत्र एकं कोष्टकमस्ति. अन्तिमं करोतु अधुना.
लता सखिभिः क्रीडति.
सखीभिः सह क्रीडति. किमर्थं सखीभिः?
वित् इट् इस्
अत्र सखीभिः अत्र बहुवचनरूपं किमर्थम्?
सख्यः.
सुन्दरं. सख्यः इति पदस्य एकवचनं किम्?
सखी.
सुन्दरं. सखी, सख्यौ, सख्यः. नदी शब्दवत्. नदी, नद्यौ, नद्यः. तथा एव सखी, सख्यौ, सख्यः प्रथमान्तं रूपं. परन्तु अस्माकं कृते तृतीयान्तं रूपम् आवश्यकं बहुवचने. अत्र रक्तवर्णैः अक्षरैः लिखितानि पदानि सन्ति. एकवारं वदतु भगिनि, अत्र पदानि पठतु.
छात्रेण, छात्रैः, मित्रेण, मित्रैः, बालिकया, बालिकाभिः, सख्या, सखिभिः.
इत्युक्ते अत्र केवलम् एकवचनं तृतीयान्तरूपाणि दत्तानि, एकवचनं अपि च बहुवचनरूपाणि दत्तानि. परन्तु संस्कृतभाषायां द्विवचनम् अपि अस्ति, परन्तु अत्र न दत्तमस्ति. छात्रेण इति तृतीयान्तम् एकवचनं रूपं, छात्रैः बहुवचनं. तयोर्मध्ये द्विवचनमपि अस्ति. यथा कादम्बरी भगिनी उक्तवती, छात्राभ्यां, मित्राभ्यां, बालिकाभ्यां, तथा द्विवचनरूपाणि सन्ति. अधुना कालातीतः अभवत्, परन्तु अत्र एकं सम्भाषणमस्ति, अपि च इतोपि करपत्राणि सन्ति. परन्तु अस्माकं भाष्ये समयः नास्ति, तदर्थम् अत्र स्थगयाम. पुनः अग्रिमे सप्ताहे एकवारं मिलित्वा अन्यान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः. नमस्कारः.
नमस्कारः भगिनि.
धन्यवादः.
धन्यवादः.